started.
It is too much of it. Too much of echo.
Bimla bajne, bimla bajne.
Your cupping, yours,
yours. धन्यवादः भगिनी. सर्वे मिलित्वा गायन्तु. सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखं भवेत्. ॐ शान्ति शान्ति शान्तिः. अस्तु, एकं लघु कथा वदामः अद्य. एकं गुरुकुलम् अस्ति. तत्र एकः गुरुः निवसति स्म. गुरुः तु महापण्डितः अभिख्यातः च. तयस् समीपे बहु छात्राः आगच्छन्ति. एकदा एकः प्राज्ञः बालकः आगच्छति. एकदा कथम् अभवत्? एकदा एकः प्राज्ञबालकः आगच्छति. सः वदति, हे गुरो, अहं प्रणमामि. अहं भवतः शिष्याः भवितुम् इच्छामि. अहम् अर्हामि किम् इति. गुरु वदति, एका परीक्षा अस्ति, उत्तीर्णः भवतु इति. गुरुः पृच्छति, देवः कुत्र अस्ति वदतु. प्राज्ञशिष्यः प्रतिवदति, देवः सर्वत्र अस्ति, सः कुत्र नास्ति इति भवान् एव वदतु. गुरुः सन्तुष्टः भवति. बालकः गुरुवयस्य प्रियछात्रः भवति. समीचीनमेव. सर्वे अवगतं किम्?
आम्.
परमेश्वरन् महोदय, भवान् न श्रूयते, उच्चैः वदतु. धन्यवादः. एण्ड् नयना जी, नयना भगिनी,
जस्ट् ऐ एण्टर्.
ओके ओके. डिड् यु लिसन् टु द कथा? धन्यवादः. अस्तु, हरिकृष्ण महोदय, सर्वे अवगतं किम्? अस्तु, धन्यवादः. न श्रूयते, हरिकृष्ण महोदय. अस्तु, एकमेकं प्रश्नं पृच्छामि, उत्तरं ददातु. गुरुः कुत्र निवसति? गुरुः गुरुकुले निवसति स्म. In the past, to make it in the past. So when we add sma in the end, it makes it into the past tense. something happened before. So, Guruhu, kaha asti? Guruhu, kaha asti? Guruhu, mahapanditah asti.
Abhikyatah cha.
Abhikyatah.
Saha, abhikyatah cha asti. Abhikyatah artham gyatam va? Iti ukte?
प्रसिद्धः
तस्य समीपे बहु छात्राः अगच्छन्ति एकः प्राज्ञः बालकः किम् इच्छति
सः गुरुकुले भवितुम् इच्छति
शिष्यः भवितुम् इच्छति
शिष्यः भवितुम् इच्छति
सः गुरुकुले वसितुम् अपि इच्छति सः शिष्यः भवितुम् इच्छति सः गुरु किं वदति परमेश्वरन् महोदय
गुरुः
गुरुः वदति करोमि धन्यवादः गुरुः किं पृच्छति नैनाजी गुरु पृच्छति देवः कुत्र अस्ति धन्यवादः संगीता भगिनी बालकाः प्रति किं वदति
अच्छा देवः कुत्र अस्ति बालकः प्रति अस्ति
सः कुत्र नास्ति भवान् एव वदतु सो गुरुः कः भवति
गुरुः सन्तुष्टः भवति
धन्यवादः भगिनि गुरुः सन्तुष्टः भवति बालकः गुरुवर्यस्य प्रियछात्रः भवति अनन्तरं बालकः गुरुवर्यस्य प्रियछात्रः भवति गतसप्ताहे वयं समयविषये पठितवन्तः अद्य वयं किञ्चित् पुनः स्मरणं कुर्मः कः समयः अस्तु हरे कृष्ण महोदय.
हरे कृष्ण महोदय.
भवान् अस्ति
वा? भवान् अस्ति वा?
अस्तु सुजाता भगिनि.
सुजाता भगिनि वदतु.
आं भगिनि.
आं भगिनि.
षड्वादनं.
सार्ध षड्वादनं.
षड्वादनं.
अस्तु.
नेक्स्ट् वा? नेक्स्ट् वा?
त्री ओ क्लाक्.
त्री ओ क्लाक्.
विमला भगिनि.
विमला भगिनि.
समयः त्रिवादनं.
त्रिवादनं. त्रिवादनं भगिनि. टेन् ट्वेण्टि पास्ट् टेन्
ट्वेण्टि फैव्
मुझे बोलना.
So do you remember then if we are doing the
पञ्चविंशतिः दशवादनम्. नो दिस् हौ टु से ऐ डोण्ट् अण्डर्स्टाण्ड्.
पञ्चविंशति अधिक
पञ्चविंशाधिक पञ्चविंशाधिकदशवादनं.
पञ्चविंशति पञ्चविंशतिः. वेन् वि आर् सेयिङ्ग् पञ्चाधिक् देन् वि आर् एडिङ्ग् पञ्च अधिक षड्वादनं दशवादनं वट् एवर् इट् इस् बिकास् देर् इस् अ देयर् अधिक पञ्चाधिक. बट् हियर् वि आर् सेयिङ्ग् पञ्चविंशतिः. पञ्चविंशतिः. देन् एड् अधिक दिक् पञ्चाधिक. सोरि पञ्चविंशतिः.
अधिकदशवादनं.
दशवादनं.
पादोन् अष्टवादनं. अस्तु. देन् परमेश्वरन् महोदय.
परमेश्वरन् महोदय.
नेक्स्ट् वन्.
I have to say
There is some noise here. Please everybody mute themselves except the person who is speaking.
Dash Noon Panchavadanam.
Dash Noon, but I was asking 5:30.
Acha Sardha Panchavadanam.
Samichnam. And that previous one is also correct, the one that Dash Noon, when there is less than, then we use the word Noon. Dash Noon Chatur. Oh, sorry. Dash Noon Panchavadanam. Because it's noon to punch, five to ten. 10 to 5, sorry. Astu, dhanyavad, bhagini. Next is Hare Krishna Mohode. We will try again if you can speak. 9:45. Mohode? Your mic is muted. Maybe you can't speak for some reason. Okay. There was Kamala Bhagini just joined but left again. I don't know what. Okay. So Bhagini, we'll start the next column. And Shigram Shigram Vadatu. So we will do Sujata Bhagini 133 and then Vimala Bhagini, then Sangeeta Bhagini. We'll just do one at a time.
त्रयस्त्रिंशत् एकवादनम्
त्रयस्त्रिंशत्
अधिक एकवादनम्
धन्यवादः. नेक्स्ट् विमला भगिनी
पञ्चाधिक चतुर्वादनं
पञ्चाधिक चतुर्वादनं धन्यवादः भगिनी. नेक्स्ट्
पञ्चन्यून नववादनं
समीचीनम्. Then Parmeshwaran Mohode, 222. Parmeshwaran Mohode, Siva. Na Shruite Mohode. Asunaina Bhagini. Next one. 222.
222. विंशतिः द्वे अधिकं द्विवादनं
द्विविंशतिः द्विवादनं द्विविंशतिः द्विविंशति द्विवादनं. देन् भानुमति भगिनी नेक्स्ट् वन् 12:07.
सप्तनिमिषाधिक द्वादशवादनं
सप्ताधिक द्वादशवादनं. सो लेट् मी गो बेक् एण्ड् शो यू द स्लैड्स् आफ् द प्रीवियस् लेसन् देट् वि डिड्. सो here we remember that when we say when there is panchadhik and pancha nyuna trivadanam, like that pancha nyuna, so two words are there, one is adhik and one second one is nyuna. So these are that you need to remember. Then the other four words are sapad, sard, padon and vadanam. So you can say anything. So let's Bhanumati Bhagini.
Ha Bhagini.
437. Excuse me. How do we say excuse me So do you remember the counting that we did? So saptatrimshat, that is
seven. Chaturvadanam.
Saptatrimshat adhik. Excuse me, sorry. Adhik saptatrimshat adhik. So because it's a trimshat, so it will become saptatrimshat adhik
chaturvadanam.
Because a will be absorbed in the ta, so you don't need to say the adhik, the thik only. Because trimshat ta is with the halanta.
Saptatrimshatik chaturvadanam.
Saptatrimshatik chaturvadanam. Dhanyavadah bhagini. Then Parmeshwaran Mahode, 559.
द्वादनम्
क्षम्यतां पुनः वदतु भवान् न श्रूयते.
एकन्यून षड्वादनम्
एकं न्यून षड्वादनं सिम्पल् देन् 642 भगिनि सुजात भगिनी.
आं भगिनि, द्विचतुर्विंशत्षड्वादनं.
द्विचत्वारिंशत्
द्वाचत्वारिंशदधिक षड्वादनं.
वेन् वि डू द कौण्टिङ्ग् वि विल् डू इट् अगेन्. Up to 30 is dvi. So dva. So like dvadash, dva vimshati, dva trimshat. But when it goes to 40, then it becomes dvi. Dvi chatvarimshat. Just remember up to 30. It's okay. So up to 30, you say dva. Like dvadash. Okay.
Yes.
Dva vimshati, dva trimshat. But 42 becomes dvi chatvarimshat.
Dvi chatvarimshat. Shadvadanam.
Shadvadanam. Shadvadanam. Next. I have no question. My question. Hare Krishna Mahode, are you able to say now? 7:25?
Yes.
7:25, yeah.
पञ्चविंशति
अधिक सप्तवादनं. समीचीनं. सो यु से फस्ट् द लास्ट् पार्ट् देट् मोर् देन् सेवन् सप्तवादनं. धन्यवादः
भगिनि. क्षम्यताम्. एकवारं 642 वदतु.
दिस् 642 वुड् बि द्विचत्वारिंशत्.
चत्वारिंशत् अधिक
षड्वादनं. द्विचत्वारिंशत् अधिक.
नो नीड् आफ् अधिक.
No, you say dhik, but it's vimshat. Chatvarimshat. Ta is with the halanta. चत्वारिंशत् दिक्
षड्वादनं
षड्वादनम् इफ् ऐ हेव् टु रैट् इट् I don't know if I can write it on any kind of whiteboard. Let me try. I don't know what you see on your screen, but wait. Excuse me. Right. So, are you able to see the different screen now? Yes, you can.
Yes.
So it is like if you say the is like this, mm-hmm. and then there is a dik in the like
adik.
My handwriting is with the mouse is not mm-hmm. great. So the this with the halant that mm-hmm. with a becomes like just
adik.
Mm-hmm. So you don't need to say adik. Full there.
Yeah.
Yeah.
Yes. Then you are the one.
Let me go back to my original slide. Yeah. So you can see my original slide. No? And now. 9:33 Vimla Bhagini. Suddenly some noise coming. 9:33 Bhagini.
Trayatrimshat adhik navavadanam.
It is
Trayatrimshat.
त्रयस्त्रिंशत् दिक्
नववादनं
नववादनं धन्यवादः भगिनि देन् परमेश्वरन् महोदय 12 11 11 पास्ट्
12 एकादशाधिक द्वादशवादनं
हा समीचीनम् Then Naina Bhagini, Ekadash Dhika Dwadash Vadanam. Naina Bhagini,
11-12? Dvidasha Adhikam.
Dwadash.
Dwadash, okay. Dwadash, yeah. Dwadash Adhikam. एकादशवादनं
द्वादश दिक् द्वादश दिक् एकादशवादनं धन्यवादः भगिनि भानुमति भगिनि
आं भगिनि 232 द्वित्रिंशाधिक द्विवादनं
द्वात्रिंशत् Remember, up to 30, it is dwa. After that becomes dvi.
Dwa trimshadik dvivadanam.
Samichnam, dhanyavad. Then, Parmeshwaran Mohode. The last one.
Dvi. चत्वारिंशत् नववादनं
द्विचत्वारिंशत्
नववादनं
समीचीनं धन्यवादः सो देट् इस् द समयः समयः कः समयः सार्धषड्वादनं समयः त्रिवादनम् एनिथिङ्ग् यु केन् से So, Samaya is related with the word Kada. Kada is the Prashnavachak Shabda. When? So, Balakaha Kada Pratyagachati. Balakaha Kada Pratyagachati. Balakaha Sardh Trivadane Pratyagachati. Kaksha Kada Smapnoti. समाप्नोति कक्षा पादोन त्रिवादने समाप्नोति अस्तु एकमेकं प्रश्नं पृच्छतु अद्य एकमेकं प्रश्नं पृच्छतु कदा सुजाता भगिनी एकं प्रश्नं पृच्छतु कदा उपयुज्य एकं प्रश्नं
भवती कदा उत्तिष्ठति
भवती कदा उत्तिष्ठति बालकः कदा उत्तिष्ठति अहं सार्धसप्तवादने उत्तिष्ठामि भवती कदा उत्तिष्ठति
अहं पञ्चवादने उत्तिष्ठामि
समीचीनं भवती ब्रह्मकाले उत्तिष्ठति अहं राक्षसकाले उत्तिष्ठामि अस्तु हरिकृष्णमहोदय एकं प्रश्नं पृच्छतु हरिष्केश
बालक मैम तो स्लीप बाल स्लीप स्लीप
निद्रति
बालक को बालक कदा निद्रति
बालकः कदा निद्रति बालकः दशवादने निद्रति भवान् कदा निद्रति
मम एकादश
वादने
एकादश अहम्
एकादशवादन निद्रति निद्रामि
समीचीनम् अहम् एकादशवादने निद्रामि विमला भगिनी एकं प्रश्नं पृच्छतु कदा उपयुज्य
बालिका कदा अल्पाहारं करोति
बालिका कदा अल्पाहारं करोति उत्तरमपि ददातु
बालिका नववादने अल्पाहारं करोति
समीचीनं बालिका नववादने अल्पाहारं करोति परमेश्वरन् महोदय एकं प्रश्नं पृच्छतु कदा उपयुज्य
छात्रः कदा विद्यालयं गच्छति छात्रः दशवादने विद्यालयं गच्छति
छात्रः दशवादने कक्षा पाठशाला विद्यालयः गच्छति समीचीनम् अस्तु नैना भगिनी
बालकः कदा उद्यानं गच्छति
बालिकाः कदा उद्यानं गच्छति उत्तरमपि ददातु भगिनि
बालिकाः पञ्चवादने उद्यानं गच्छति
बालिका और बालिकाः
बालिकाः अद्य गच्छामि
गच्छन्ति बालिकाः षड्वादने उद्यानं गच्छन्ति सर्वे कार्यं बालिकाः एव कुर्वन्ति अहं किमपि न करोमि भवती अपि किमपि न करोति
अस्तु
ओ भानुमति भगिनी एकं वाक्यं वदतु भानु
सः कदा कार्यालयं गच्छति?
सः कदा कार्यालयं गच्छति? उत्तरं
सः नववादनं कार्यालयं
नववादने गच्छति. धन्यवादः भगिनि. कमला भगिनी अस्ति वा?
हलो.
हलो.
केन् यु हियर् मी?
हा, ऐ केन् हियर् यु.
एकं
प्रश्नं पृच्छतु. ओके.
ऐ जस्ट् जायिन्ड्. जस्ट् ट्रैङ्ग् टु वाट् इस्
अण्डर्स्टाण्ड्
वाट् इस् टु बि डन्.
वि आर् saying we are trying to ask a question, make any question using the shabd kada. Like kaksha kada smapnoti, balikah kada pathashalam or vidyalayam gachati.
Okay, so we have to use kada and make a sentence.
Question. Question.
Okay.
Are you able to make one sentence?
Let me think. Till that time, if somebody else can.
Bhavati kada bhojanam karoti? Kada udishtati? Kada snanam karoti? Kada pujam karoti? Kada...
Kada khadati?
Kada khadati? Kada samarjanam karoti? Kada patrani chalati? कदा दूरदर्शनं दर्शयति?
ओके.
ओ पश्यति? एनी सेण्टेन्स् यु केन् मेक्. ओर् अहं पञ्चवादने उत्तिष्ठामि. अहं कदा उत्तिष्ठामि? अहं पञ्चवादने उत्तिष्ठामि. अहं नववादने स्नानं करोमि. अहं तदा योगासभ्यां करोमि. ओ क्षम्यतां भगिनि, सङ्गीता भगिनि, एकं प्रश्नम् आफ्टर् कमला भगिनि. क्षम्यताम्. I thought you were logged in twice sometimes.
Somehow the screen disappeared, so I had to log in again. I was not able to see the screen.
So, Kamala Bhagini, are you able to make a sentence then?
Yes. Kada aham kada aham kada pashyanti kada durdarshanam pashyanti
pashyami.
Yes, pashyami.
अहं कदा दूरदर्शनं पश्यामि?
अहं पञ्चवादनं दूरदर्शनं पश्यामि.
अहम् आदिनं दूरदर्शनं पश्यामि. आदिनं, डु यु रिमेम्बर् भगिनि? ऐ डोण्ट् रिमेम्बर्. विम्ला भगिनि, डु यु रिमेम्बर् वट् डस् आदिनं मीन्स्?
ओल्ड्
डे. When you say A in the front, it means old day.
Adinam. Okay. Old day.
Adinam.
Na pashyami.
Next, we will practice little bit of Bahuvachanam we did last time. So, what I will do, before we go any further, let's complete with this. Aham panchvadane utishthami. Aham sardha panchvadane utishthami. Aham saptavadane prataha rasham khadami. Aham navavadane karyalayam gachhami. Aham दशवादने निद्रामि. सो एज ए होम्वर्क् प्लीज़् रैट् योर् दिनचर्या like what during the daytime, at least 20 sentences. Rasham is like alpaharam, little bit. So bahuvachanam when simple is, I think we have done this. This might be duplicate slide. Rama, Ramaha becomes Ramaha. Sita becomes Sitaha as a bahuvachanam. Lekhani, here E is changed to Yaha, Lekhanyaha. Na, when you take the E out, it becomes half Na and then Yaha is added. Lekhanyaha. Vanam, Vanani. Ani is added. For neuter. Patram, Patrani. Pushpam, Pushpani. So when we say these are the pronouns, saha becomes te, sa becomes taha, tat becomes tani.
Becomes ke.
Then kaha becomes ke. And ka becomes kaha, kim becomes kani. Eshaha, ete, esha, etaha, etat, etani. Then bhavan, bhavantaha, bhavantaha. So when you are saying to all of you, then you say bhavantaha. Kim kim karyam vanti, bhavati. Avyaha. Aham becomes vayam. Vayam patam patitvantaha. Vayam patam patamaha. Do you see the difference? So what we will do, we will try to make a sentence with using say like say ते बालकाः क्रीडन्ति. सो दोस् बाय्स् प्ले. देन् ताः बालिकाः गायन्ति. तानि मित्राणि, तानि मित्राणि खादन्ति. के बालकाः क्रीडन्ति, te balakah kridanti. So like that we will make one sentence each using any of the words from here. So have we I will start with Sangeeta Bhagini this time. Last time I forgot about her. Sangeeta Bhagini, can you make one sentence?
Te kridanti.
Te kridanti. Te kridanti is samichanam, but I was trying to make a sentence with the using pronoun as well as a.
Okay, okay. Tani ekantenani ane phalani santi.
Tani phalani.
अनेक फलानि सन्ति.
अनेक,
ढेर सारे. और तानि फलानि सन्ति.
तानि फलानि मधुरं सन्ति.
मधुरं सन्ति.
पाकि फलानि अनेकानि रागानि. दैट्स व्हाट डिफरेंट कलर्स.
Okay.
Anekani ragani santi. You could say that. Next, go back to Sujata Bhagini. in the meantime, everybody think about a sentence. So we
बालिकाः
ताः बालिकाः
ताः बालिकाः बालिकाः क्रीडाङ्गणे खेलन्ति क्रीडन्ति
ताः बालिकाः क्रीडाङ्गणे
क्रीडाङ्गणे
क्रीडन्ति
क्रीडन्ति
धन्यवादः भगिनी समीचीनं बहु उत्तमम् अस्तु ऋषिकेशः महोदय
तः बालकः विद्यालय गच्छति
सः बालकः विद्यालय गच्छति
सः बालिका विद्यालय गच्छति
बहु उत्तमम्
तानि पुष्पाणि विकसन्ति
तानि पुष्पाणि विकसन्ति बहु समीचीनम् परमेश्वरन् महोदय नेक्स्ट् वन्
एते बालकाः क्रीडन्ति
एते बालकाः
क्रीडन्ति
समीचीनं धन्यवादः नेक्स्ट् नैना भगिनी
एषा किं करोति
एषा
जलं पिबति
एषा महिला जलं पिबति
एषा महिला जलं
एषा तरुणी तत्र पश्यति अस्तु नेक्स्ट् इस् हूस् नेक्स्ट् भानुमति भगिनि
एताः अध्यापिका पाठयन्ति
एताः अध्यापिकाः पाठयन्ति धन्यवादः बहु समीचीनम् अस्तु सङ्गीता भगिनी
वयं मिलित्वा पठन्ति
वयं मिलित्वा
पठन्ति
पठामः समीचीनं कमला भगिनी
इन् एकवचन सः सैनिक आगच्छति एण्ड् इन् अनेकवचन ते सैनिका आगच्छामि
सः सैनिकः आगच्छति ते सैनिकाः आगच्छन्ति
आगच्छन्ति ओके नाट् आगच्छामि
आगच्छामि एव्रिथिङ्ग् इस्
टु सिङ्ग्युलर् फोर् मै सेल्फ् ओके
फोर् योर् सेल्फ् या
आगच्छति ओके
धन्यवादः भगिनि सो इस् दट् टु एव्रिवन् क्लियर् हौ टु डू द pronoun using the pronoun at bahuvachanam we can make sentences so asmi becomes smah here it says here as well asti becomes santi asmi becomes smah pathamah more So next word is we have already done that. It becomes like likhti becomes likhanti. Anti, you always add anti. Na, and na is added. Patthi, patanti. Kridati, kridanti. Pibati, pibanti. Snati, snanti. Pashyati, pashyanti. Gachati, gachanti. So, just read one person can read. Sujata Bhagini, can you read the next line? Likhami.
Likhami, likhama.
Next, Rishikesh Mode.
Pathami, pathamaha.
Pathami, pathamaha. Dhanyavadaha. विमला भगिनी क्रीडामि क्रीडामः धन्यवादः भगिनी. परमेश्वरन् महोदय.
कूर्दामि कूर्दामः
वानराः कूर्दन्ति. अस्तु धन्यवादः. नेक्स्ट् इस् नैना भगिनी.
स्नामि स्नामः.
वी लेफ्ट् फर्स्ट् वन् दट्स् ओके.
पिबामः.
भानुमति भगिनी नेक्स्ट् वन्.
पश्यामि पश्यामः. स्नामि स्नामः.
स्नामि स्नानामः. धन्यवादः कमला भगिनी नेक्स्ट् वन्.
या बट् ऐ हेव् नाट् अण्डर्स्टुड् वाट् इस् दिस् लैक् लिखामि लैक् हियर् लिखति बिकम्स् लिखन्ति इन् प्ल्यूरल् ओके. पठति बिकम्स् पठन्ति इन् प्ल्यूरल् बट् हियर् दिस् लिखामि एण्ड् लिखामः लिखामः इस् प्ल्यूरल् अवाट्
या बट् इट् इस् यूस्ड् फोर् when we say I do something, I write, aham likhami. We all write, vayam likhamaha.
Okay, okay.
I so read, aham pathami, vayam, we all read, then vayam pathamaha.
Pathamaha, okay. So I have to read pashyami, pashyamaha. Aham pashyami, vayam pashyamaha.
Samichnam. अहं गच्छामि वयं गच्छामः.
गच्छामः ओके.
अहं वदामि वयं वदामः. सो ऐ होप् ऐ हेवन्ट् लेफ्ट् एनिबडी दिस् टैम्. अस्तु नेक्स्ट् इस् इट् इस् स्टिल् द बहुवचनम् but these kriyapadams, these are slightly different. When you see like likhati, you remove ti and add anti. Here you remove ti and add anti, so then it becomes the next bahuvachanam. Yes, we add remove me and become add aha, aha maha, so that becomes the bahuvachanam for uttam purushah. Here these are slightly different forms, but it is still bahuvachanam. So karoti becomes kurvanti. You see, like kurvanti, u of the that goes o becomes u and kurvanti. Shrunoti becomes shrinvanti. So let's just make a sentence. महिला कार्यं करोति. महिलाः कार्यं कुर्वन्ति. सो नेक्स्ट् ऐ विल् से सुजाता भगिनी, केन् यू मेक् वन् सेण्टेन्स् यूसिङ्ग् शृणोति एण्ड् शृण्वन्ति.
अस्तु शृणोति. बालिकाः कथा शृण्वन्ति.
कथां
कथां शृण्वन्ति
बालिकाः कथां शृणोति बालिकाः कथां शृण्वन्ति धन्यवादः ऋषिकेश महोदय ददाति
बालकः कलं ददाति
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 एण्ड् देन् ददति
बालकः
भगिनी म्यूट् करोतु कृपया अस्तु ऋषिकेश महोदय ददति
ददति बालिकाः
बालिकाः
बालिकाः बालिकाः
फलं हा जलं ददति
बालिकाः जलं ददति
समीचीनं धन्यवादः बहु समीचीनं विमला भगिनी नेक्स्ट् वन् जानाति
सः कार्यं कर्तुं जानाति ते कार्याणि कर्तुं जानन्ति
ते कार्यं कर्तुं जानन्ति सो देन् शक्नोति इस् दट् क्लियर् भगिनि विमला भगिनी इस् दट् क्लियर् फोर् जानन्ति
जानन्ति
अस्तु अस्तु धन्यवादः परमेश्वरन् महोदय नेक्स्ट् शक्नोति
अहं सः कार्यं कर्तुं शक्नोति ते कार्यं कर्तुं शक्नुवन्ति
समीचीनं महोदय ते कार्यं कर्तुं शक्नुवन्ति देन् नैना भगिनी प्राप्नोति
सः कः प्राप्नोति
प्राप्नोति
प्राप्नोति सः कः प्राप्नोति ते फलं प्राप्नुवन्ति
सः कः प्राप्नोति ते फलं प्राप्नुवन्ति और् फलानि प्राप्नुवन्ति फलमपि अस्तु फलं प्राप्नुवन्ति बट् वन् फ्रूट् फार् आल् आफ़् देम् डस् नाट् इस् लिट् बिट् धन्यवादः ग्रामेटिकलि करेक्ट् सेण्टेन्स् नो प्राब्लम् अस्तु नेक्स्ट् इस् भानुमति भगिनी नेक्स्ट् वन् करोमि
अहं पाकं करोमि वयं पाकं कुर्मः
पाकं करोमि अहं पाकं करोमि वयं पाकं कुर्मः धन्यवादः भगिनि देन् सङ्गीता भगिनि शृणोमि
अहं भजनं शृणोमि वयं देवालये भोजनं शृणुमः
वयं देवालये भजनं शृणुमः धन्यवादः देन् कमला भगिनी नेक्स्ट् वन्
ओके अहं जलं ददामि वयं जलमः
वयं जलं दद्मः
दद्मः ओके दद्मः ओके वी प्रोनौन्स् इट् एस् दद्मः राइट् सो अहं ददामि जलं ददामि वयं जलं दद्मः
अहं ददामि वयं दद्मः अहं जानामि वयं जानीमः सी हियर् द फॉर्म इज स्लाइटली डिफरेंट जानीमः जानामि जानीमः शक्नोमि शक्नुमः प्राप्नोमि प्राप्नुमः सो इट्स स्लाइटली टू लिटल बिट ऑफ मेमोराइजेशन इफ यू कैन डू बाय नेक्स्ट वीक ऑल ऑफ यू दैट वुड बी ग्रेट Yes, it will be. Do you get my emails, Bhagini?
Yeah, yeah, yes, I get.
Yeah, so it will be, link will be there.
Mm-hmm.
And you can always go to that page where all the other classes are also there.
Okay.
Previous ones. And also what we do on tomorrow morning as well, Saturday class or Friday class, both of them are there.
Okay. So tomorrow morning you will be doing the same thing for the other group or?
No, it will be different. They started late. So it's a different group.
So that is revision for us basically.
If you want to join, yes.
Okay, got it. Because I missed the last one. No,
no problem.
Okay.
So, now, let's write the Bahuvachana. रूपाणि सिंह गर्जति सिंह गर्जति सुजाता भगिनी सिंह गर्जति चेंज दैट वन टू बहुवचनम् सिंह गर्जन्ति नेक्स्ट ऋषिकेश महोदय बालकः हसति
बालकाः हसन्ति
समीचीनं हौ ओल्ड् आर् यू
11
बहु समीचीनं बहु समीचीनं नेक्स्ट् इस् विमला भगिनी
वानराः कूर्दन्ति
समीचीनं वानराः कूर्दन्ति परमेश्वरन् महोदय नेक्स्ट् व्याघ्रः धावति अस्तु वट् हेपन्ड् नैन भगिनी नेक्स्ट् वन् व्याघ्रः धावति
व्याघ्रः धावन्ति
समीचीनं अनुमति भगिनी नेक्स्ट् वन्
ददति
जनन्याः ददति समीचीनं देन् नैना भगिनी
यस्
डिड् वि डू देट् बिफोर् डिड् वि डू देट्
यस् ऐ डिड् फोर् व्याघ्रः
अस्तु अस्तु क्षम्यतां देन् सङ्गीता भगिनी
शिशु दुग्धं पिबन्ति
शिशवः शिशवः दुग्धं पिबन्ति समीचीनं देन् कमला भगिनी नेक्स्ट् वन् अद्य कक्षा अस्ति
अद्य कक्षा सन्ति
अद्य कक्षाः सन्ति
कक्षाः सन्ति ओके स्वर विल् बि देर् इन् कक्षा
देर् विल् बि विसर्ग लैक्
कक्षाः कक्षाः सन्ति
सा ते ताः कक्षा कक्षे कक्षाः
ओके कक्षा कक्षे
कक्षायाः Next is Nadi Vahati. Kamala Bhagini?
Nadya Vahanti.
Nadi? How does Nadi goes?
Nadi will become Nadya.
Yeah.
Vahanti.
Nadyaha Vahanti.
Nadyaha Vahanti. Vahanti.
Vahanti. Then?
Vahanti. Okay.
Mr. Parmeshwaran Mohade. Parmeshwaran Mohade. Are you able to do the next one?
Kukuraha Adandi. Kukuraha Adandi.
Kukuraha Atanti. Samichnam. Next is Sujata Bhagini. Deepaha Bhati.
Deepaha Bhanti. I don't know plural. Bhati. Plural is what? Bhanti.
Bhanti.
No. Okay. Deepaha Bhanti.
Next is Rishikesh Mohde, Putraha Pathati.
Putraha Panti.
Putraha Pathanti.
Pathanti.
Samichanam. Next, Vimla Bhagini. Putri Gitam Shrunoti.
Putri plural, I don't know.
Think of it as like a Mata. Yeah, Istri. 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 Istriyaha.
Putriyaha.
पुत्र्याः गीतं शृण्वन्ति. समीचीनं. नेक्स्ट् इस् नैना भगिनी.
यस्. जनकः जनकाः गायन्ति. जनकाः जनकाः
गायन्ति. जनकाः गायन्ति. नेक्स्ट् इस् भानुमती भगिनी. सेवकाः प्रक्षालयति.
सेवकाः प्रक्षालयन्ति.
समीचीनं. नेक्स्ट् Is it Kamala Bhagini next?
Sangeeta.
Okay. Sangeeta Bhagini.
Ramah Anugrihyanti.
Ramah Anugrihnati.
Oh, Grihnoti.
Grihnoti. Samichnam. Then next is Kamala Bhagini.
Yeah. अश्वाः चारन्ति.
अश्वः चरति.
अश्वाः चारन्ति.
I'm not quite sure if this is correct. चरन्ति. I will check that one.
चरन्ति करेक्ट.
करेक्ट अस्तु. धन्यवादः.
चरन्ति.
नेक्स्ट् इस् परमेश्वरन् महोदय. अहं मिलामि.
अहं मिलामि. वयं मिलामः.
अहं मिलामि. वयं मिलामः. अहं खादामि. अहं खादामः. अहं जानामि. अहं
जानीमः.
जानीमः. समीचीनं. धन्यवादः. नेक्स्ट् इस् वी डिड् द लास्ट् टैम् एस् वेल् वी डिड् द वासरः. कः वासरः? अद्य गुरुवा अद्य शुक्रवासरः. अद्य शुक्रवासरः. श्वः शनिवासरः. ह्यः गुरुवासरः. परह्यः बुधवासरः परपरह्यः मङ्गलवासरः अद्य शुक्रवासरः श्वः शनिवासरः परश्वः रविवासरः परपरश्वः सोमवासरः अद्य शुक्रवासरः समीचीनम् अस्तु अद्य भगिनी सुजाता भगिनी वदतु अद्य मङ्गलवासरः एतत् कल्पना करोतु वदतु
अद्य मङ्गलवासरः श्वः बुधवासरः परश्वः गुरुवासरः प्रपरश्वः गुरुवासरः
शुक्रवासरः मङ्गलवासरः श्वः बुधवासरः परश्वः गुरुवासरः परपरश्वः शुक्रवासरः
ह्यः सोमवासरः परह्यः भानुवासरः प्रपरह्यः शनिवासरः
अद्य मङ्गलवासरः ह्यः भानु सोमवासरः परह्यः भानुवासरः परपरह्यः शनिवासरः अस्तु ऋषिकेश महोदय एतत् कल्पना करोतु अद्य शनिवासरः अद्य शनिवासरः श्वः कः
श्वः रविवारस्य
वासरः समीचीनं परश्वः
सोमवासर परपरश्वः मङ्गलवासर
समीचीनं ह्यः कः अद्य शनिवासरः ह्यः
अद्य शनिवासर शुक्रवासर पर अद्य गुरुवासर
परह्यः
पर्यः गुरुवासरः परपर्यः बुधवासर
समीचीनं महोदय धन्यवादः विमला भगिनी वदतु अद्य बुधवासरः विमला भगिनी एतत् कल्पना करोतु अद्य बुधवासरः
अद्य बुधवासरः श्वः गुरुवासरः परश्वः शुक्रवासरः परपरश्वः शनिवासरः ह्यः मङ्गलवासरः परह्यः सोमवासरः परपरह्यः भानुवासरः
समीचीनं भगिनि धन्यवादः नेक्स्ट् परमेश्वरन् महोदय एतत् कल्पना करोतु अद्य गुरुवासरः
अद्य गुरुवासरः श्वः शुक्रवासरः परश्वः शनिवासरः परश्वः भानुवासरः अद्य गुरुवासरः ह्यः गुरुवासरः अद्य शुक्रवासरः ह्यः गुरुवासरः परह्यः बुधवासरः परपरह्यः मङ्गलवासरः
भवान् कः कल्पना कृतवान् अद्य गुरुवासरः शुक्रवासरः अस्तु धन्यवादः महोदय समीचीनं धन्यवादः नेक्स्ट् नैना भगिनी कल्पना करोतु अद्य बुधवासरः
अद्य बुधवासरः श्वः गुरुवासरः परश्वः शुक्रवासरः प्रपरश्वः शनिवासरः अद्य गुरुवासरः ह्य बुधवासरः परह्य मङ्गलवासरः परपरह्यः सोमवासरः
समीचीनं भगिनि धन्यवादः नेक्स्ट् इस् भानुमति भगिनी नेक्स्ट् वन् कल्पनां करोतु अद्य शनिवासरः
अद्य शनिवासरः श्वः रविवासरः परश्वः सोमवासरः रविवासरः परपराश्वः मङ्गलवासरः अद्य शनिवासरः ह्यः शुक्रवासरः परह्यः गुरुवासरः परपरह्यः बुधवासरः
समीचीनं धन्यवादः देन् सङ्गीता भगिनी कल्पनां करोतु अद्य मङ्गलवासरः
श्वः बुधवासर परश्व बृहस्पतिवासर परपरश्व शुक्रवासर य मङ्गलवा सोमवासर परय रविवासर परपर्य शनिवासर
समीचीनं भगिनी धन्यवादः कमला भगिनी लास्ट् वन् कल्पनां करोतु अद्य वयं सोमवासरः अद्य सोमवासरः
अद्य सोमवासरः श्वः मङ्गलवासरः परश्वः बुधवासरः परपरश्वः गुरुवासरः हय भानुवासरः ह्यः भानुवासरः परह्यः शनिवासरः परपरह्यः शुक्रवासरः
समीचीनं धन्यवादः सो ऐ थिङ्क् इट्स् ओल् डन् वि विल् finish today with the Shanti Mantra and next we will meet next Friday so sarve militva gayantu and धन्यवादः अग्रे सप्ताहः पुलमः मिलामः
धन्यवादः
धन्यवादः।